अभिनन्दनं करोमि आकाशवाण्यां संस्कृत साप्ताहिकी कार्यक्रमस्य नूतने अंके संस्कृतानुरागिणां श्रोतृणां भवतां कार्यक्रम प्रस्तोत्री अहम् साधना शर्मा कार्यक्रमम् आभूषयन्तः श्रोतारः भवद्भिः भाति कार्यक्रमः इतोऽपि केन कः शोभते सुभाषिते भाषते अस्माकं सहयोगिनी निधि छाः
दुग्धेन धेनुः कुसुमेन वर्ली शीलेन भार्या कमलेन तोयम् गुरुं विना भाति न चैव शिष्यः शमेन विद्या नगरी जनेन
भक्ताः श्रोतारः सद्यः एव विजयदशमी पर्व आमान्यते नवसिद्धि प्रदात्र्याः स्तुतिं प्रस्तौति अस्माकं सहयोगी नरेन्द्र दत्त सेमवालः
प्रातः स्मरामि शरदिन्दुकरोज्ज्वलाभां सद्रत्नवन्मकरकुण्डलहारभूषाम् देव्यायुधोर्जितसुनीलसहस्रहस्ताम् रक्तोत्पलाभचरणां भवतीं परेशाम्
विश्वेश्वर्याः स्तुतिः रसामृतं पीत्वा पीत्वा भक्तिभावेन आप्लुताः वयं प्रियाः श्रोतारः इदानीम् अखिल विश्वस्य साप्ताहिक वार्ताः आदाय समुपस्थिता अस्ति अस्माकं सहयोगिनी डॉक्टर सुषमा कुमारी
भारतीय जनता पार्टीति दलेन हरियाणा विधानसभीय निर्वाचन परिणामेषु तृतीयवारं ऐतिहासिकं विजयम् अधिगतम् जम्मू कश्मीरे च नेशनल कॉन्फ्रेंस कांग्रेस संयुतेः प्रशासनं विरचितम् प्रधानमन्त्रिणा नरेन्द्र मोदिना प्रोक्तं यत् हरियाणा निवासिनः विकास सुशासनं प्रकरणे भारतीय जनता पार्टीति दलाय तृतीयवारं प्रशासन विरचनस्य सुअवसरः प्रदत्तः
इदानीं विश्वभाषायाः संस्कृतभाषायाः प्रसारकाः प्रचारकाश्च श्रीमन्तः सुशीलवर्याः सन्ति संवादाय संवादं च साधयति अस्माकं सहयोगी युवकविः युवराज भट्टराई आयान्तु शृणुमस्तावत् तेषां विचाराणि
नमो नमः अद्य अस्माभिः साकं विशिष्ट संवादाय समुपस्थितो वर्तते प्रसिद्धः संस्कृत सेवकः संस्कृत वाङ्मयस्य विद्वान् संस्कृत भारती इति विश्वविख्यात संस्थायाः प्रान्त सहमन्त्री डॉक्टर सुशील कुमार महोदयः सुशील महोदय नमांसि अतोऽहं जिज्ञासामि यद् अद्य यदा वयम् एकविंश्यां शताब्द्यां वैश्वीकरणं भूमण्डलीकरणं च सम्मुखीकुर्मः तदा अस्मिन् विचित्रे विशिष्टे च सामाजिक परिवेशे संस्कृतस्य का भूमिका विश्वमञ्चे भवेद् इति विषये संस्कृतभारती संस्था कीदृशं मानकं कार्यं कुरुते
शोभनः प्रश्नः उत्थापितः भवता युवराज महोदय वस्तुतः संस्कृतं नाम किम् संस्कृतं तु भाषा अस्ति
एवं
यस्यां सर्वे विचारः समाहितः
सत्यम्
अस्माकं ऋषिभिः पूर्वजैः यत् तपः कृतं तस्य भण्डारः अस्ति अस्यां भाषायां निहितम्
एवम्
अतः विश्वे शान्तिस्थापनाय एषा भाषा पठनीया संस्कृतभारती द्वारा सम्पूर्ण विश्वे संस्कृत सम्भाषण आन्दोलनं प्रचाल्यते
सत्यम्
सम्पूर्ण विश्वे जनाः संस्कृतेन वदेयुः
एवं
संस्कृतं यदा ते वदन्ति तदा तेषाम् अन्तःकरणे एकः भ्रातृभावः उत्पन्नः भवति यत् भारतस्य यः विचारः अस्ति वसुधैव कुटुम्बकम्
सत्यम्
सहैव विचारः सर्वेषु देशेषु संस्कृत सम्भाषण माध्यमेन संस्कृत भारती प्रसारयति
एवं मित्रस्य चक्षुषा समस्य
निश्चयेन अधुना वयं पश्यामः विश्वे युद्धानि प्रचलन्ति एतस्मिन् काले तु वसुधैव कुटुम्बकम् यः विचारः अस्ति स इतोपि अत्यन्त अनिवार्यम् अस्ति जनाः यदा यः पुरतः देशः अस्ति तस्य जनम् यदि भ्रातृरूपेण पश्यन्ति तदा ते तेन सह आत्मीयताम् अनुभवन्ति संस्कृत भारती कार्यकर्ता यदा सम्पूर्ण विश्वे कार्यं करोति
एवं
तदा सः भ्रातृभावम् उत्पादयति सर्वेषु जनेषु एतदेव अस्ति संस्कृत भारती कार्यं विश्वशान्तिस्थापनं विश्वस्य पोषकं च
एवं तर्हि भवद्भिः अत्र प्रतिपादितं यत् विश्वं सौहार्दमयं भवतु इति
निश्चयेन
एवं संस्कृतेन तत् विधातुं शक्यते अस्तु शोभनं भवद्भिः अत्र प्रत्युत्तरितं तावत् मान्य महोदय एकविंशे शताब्देऽस्मिन् वयं न केवलं पारम्परिकरीत्या अपि तु वैद्युतिक अन्तर्जाल प्रविधि संयोगेन प्राविधिक प्रकल्पेन च सारल्येन निजविचारान् अनुभवान् प्रतिक्रियाः च सर्वत्र सर्वजनेषु प्रतिपादयितुं प्रापयितुं च समर्हाम अस्मिन् सन्दर्भे संस्कृतवाङ्मयस्य प्रसारे एतद् आधुनिकं साधनं कियदस्ति उपकारकं कृपया उच्यताम् अथ च किं संस्कृतभारत्याः कार्यकर्तारः एतैः माध्यमैः कथं संस्कृतं प्रसारयन्तो वर्तन्ते तद्विषये अपि किञ्चित् उच्यतां तावत्
निश्चयेन सत्यमुक्तं भवता एतस्मिन् समये तकनीकी प्रयोगः अधिकः
एवम्
एतस्य लाभः संस्कृताय अपि प्राप्तः
सत्यम्
अस्माकं कार्यकर्तारः विभिन्नाः कक्षाः चालयन्ति
एवं
पत्राचारद्वारा संस्कृतं योजनायां प्रायशः 80,000 जनाः संस्कृतं पठन्ति
एवं
ते गृहे स्थित्वा पठन्ति ये कदापि बहिरागन्तुं न शक्नुवन्ति अथवा येषां पार्श्वे समयाभावः भवति ते अस्माकं पत्राचारयोजनायां सहभागितां स्वीकृत्य संस्कृतं पठन्ति
एवं
वयम् आन्लैन् माध्यमेन तान् पाठयामः
एवं
छात्राः गृहे उपविश्य अस्माकं पुस्तक माध्यमेन अस्माकं पुस्तकानि तेषां समीपे भवति आन्लैन् कक्षा द्वारा संस्कृतस्य अध्ययनं कुर्वन्ति अस्माकं सम्भाषण पत्रिका माध्यमेन लक्षाधिकाः पाठकाः सन्ति आन्लैन् पत्रिका अस्ति अहं चिन्तयामि एतस्मिन् काले विश्वे सर्वतो अधिकः पाठकः सम्भाषण सन्देश पत्रिका यः एव अस्ति संस्कृत माध्यमेन या पत्रिका वर्तते
एवं सत्यम्
तकनीकः यथा काचित् भौगोलिक सीमा न भवति तथा एव संस्कृत भाषायाः विचाराणाम् अपि काचित् भौगोलिक स्थितिः सीमा नास्ति
नास्ति नास्ति
सोशल् मीडिया इति माध्यमेन अपि अस्माकं संस्कृतभारती फेस्बुक् पेज् माध्यमेन प्रतिदिनं भारतीय ज्ञान परम्परायाः विचारान्
तत्र प्रसार्यन्ते
निश्चयेन वयं प्रसारयामः कारणं संस्कृतभाषायां ये विचाराः निहिताः सन्ति ते तु इदानीं पाण्डुलिपि मध्ये सन्ति 64,00,000 पाण्डुलिपयः अप्रकाशितः ते विचाराः समाजस्य पुरतः आगच्छेयुः एतदर्थम् अस्माकं सोशल् मीडिया पेज् द्वारा सर्वत्र प्रसार्यते प्रतिदिनम् एकैक विषयः
एवम् अत्र भवद्भिः प्रोक्तं यत् 80,000 मिताः जनाः अन्तर्जालमाध्यमेन पठन्ति ते किं केवलं भारतीयाः एव सन्ति उत वा बहिस्तात् वैदेशिकाः अपि सन्ति
ते भारतीयाः अपि सन्ति वैदेशिकाः अपि सन्ति
एवं
ते अष्टसु भाषासु संस्कृतं पठन्ति अष्टभाषामाध्यमेन
अस्तु
यथा हिन्दी आङ्ग्लं मराठी कन्नड मलयालं तेलुगु
एवम्
इत्यादि भाषामाध्यमेन अपि ते पठन्ति
वैदेशिकभाषासु स्थानीय भाषासु च
निश्चयेन वैदेशिक भाषासु केवलम् आङ्ग्लभाषा माध्यमेन पाठ्यते
एवम्
अन्यः तु भारतीय भाषा
एव एवम् एवम् अस्तु एतत् खलु नवीनम् अत्र अस्माभिः ज्ञातं यत् 80,000 मिता अन्तर्जालमाध्यमेन पठन्ति अत्र संस्कृतभारत्या उपकारः एव जनेषु खलु संस्कृतमाध्यमेन अस्तु सुशीलवर्य वेत्येव भवान् यत् संस्कृतस्य देवभाषात्वं सर्वैः महर्षिभिः मनीषिभिः च स्वीकृतं प्रख्यापितं च अस्याः भाषायाः अध्ययनेन नरोऽपि देवत्वं दिव्यत्वं च विन्देद् इति सुधियाम् अनुभव परन्तु आधुनिके काले केचन संस्कृताध्यायिनः हीनं मन्यतया ग्रस्ताः परिलक्ष्यन्ते नैके शास्त्रव्युत्पन्नाः अपि संस्कृतविषयाणां गौरवातिरेकम् अजानानाः संस्कृतविद्वेषीकृतोपलम्भान् तूष्णीं सहन्ति एतादृशेभ्य जनेभ्य संस्कृतविषयाणां माहात्म्यबोधनेन गौरवानुभवः कथं भवेत् तद्विषये भवतः किमस्ति मन्तव्यम् अथ च संस्कृतभारती किं करोति
भवद्भिः सत्यमुक्तम् अस्मिन् अस्माकं मतं भिन्नम् अस्ति
एवं
यत् ये संस्कृताध्यायिनः सन्ति
एवं
ते हीनतां न अनुभवन्ति.
अस्तु.
ये अनुभवन्ति ते संस्कृतस्य अधेतारः न सन्ति.
एवं
इत्युक्ते यही संस्कृतं गभीरतया अधीतं तेषाम् अन्तःकरणे गौरवं स्वयमेव आयाति.
एवं
कारणं तेषाम् अन्तःकरणे ज्ञानस्य आत्मविश्वासः अस्ति,
प्राचुर्यम् अस्ति तत्र ज्ञानस्य.
ये किञ्चित् जानन्ति, किञ्चित् पठितं, किञ्चित् दृष्टं पुस्तकम् एकवारं, ते अपि आत्मानं चिन्तयन्ति वयं तु संस्कृतज्ञः यद्यपि तै न गम्भीरम् अधीतं, तर्हि तेषाम् अन्तःकरणे आत्मविश्वासः कथम् आगच्छेत्?
अस्तु.
एतस्मात् ये गभीरतया अध्ययनं कुर्वन्ति, वयं सर्वत्र समाजे पश्यामः, ते सर्वे सर्वदापि गौरवेण आत्मानम् अनुभवन्ति. कारणं ते समाजे नैतिकताम् उत्पादयन्ति, ते समाजस्य आदर्शः भवन्ति, ते समाजस्य एकं सांस्कृतिक राजदूत रूपेण मार्गदर्शनं कुर्वन्ति. कारणं ते सहस्राधिक वर्षेभ्यः या अस्माकं सांस्कृतिक परम्परा प्रचलति तस्याः राजदूताः सन्ति. अतः संस्कृतज्ञः यदा गभीरतया अध्ययनं कुर्वन्ति, आत्मविश्वासः वर्धते, तेषाम् आत्मविश्वासमाध्यमेन एव समाजस्य अपि आत्मविश्वासः वर्धते. अतः वयं वक्तुं शक्नुमः यत् अधुना अपि ये संस्कृतज्ञाः सन्ति ते तपः कुर्वन्तः सन्ति, तेषां तपसा एव अधुनापि भारते नैतिकता सदाचारः इति दृश्यते.
एवम्
एतस्मात् वयं वदामः संस्कृतं भारतस्य आत्मा अस्ति, तथा च संस्कृतज्ञा तस्याः आत्मनः राजदूतः सन्ति.
एवं तर्हि अत्र भवद्भिः प्रोक्तं ये गूढगम्भीरज्ञानं धरन्ति ते खलु आत्मानं गौरवान्वितमेव अनुभवन्ति.
ते कदापि हीनतां न अनुभवन्ति. कारणं ते जानन्ति किमर्थं ते संस्कृतं पठन्तः सन्ति.
एवं
कारणं यदा ते संस्कृतं पठन्ति तदा ते भारतस्य गौरवाय, भारतस्य संस्कृतेः रक्षणाय संस्कृतं पठन्तः भवन्ति. भारतस्य रक्षणाय ते संस्कृतं पठन्तः सन्ति.
एवं
तथा च यथा एकः सैनिकः सीम्नः उपरि भारतस्य रक्षां करोति, सः आत्मानं गौरवान्वितम् अनुभवति, तथा एव कश्चन संस्कृतज्ञः यदा संस्कृतं पठति सः अपि तथा एव चिन्तयति, अहं भारतस्य गौरवस्य रक्षार्थं संस्कृतं पठामि.
संस्कृतसैनिकः इति
निश्चयेन.
एवं भवद्भिः खलु अतीव सुष्ठु प्रतिपादितम् अत्र. अस्तु, नूनमेव सान्दर्भिकम् अत्र भवद्भिः प्रोक्तम्. अस्तु सुशीलमहोदय, संस्कृतभाषायां प्रतिपादितानां विषयाणां व्यापकता जनसामान्यैः प्रतिपादयितुं तु अशक्यमेव. संस्कृतभाषा प्रणीतानां वेद वेदाङ्ग उपनिषद् ब्राह्मण आरण्यक धर्मशास्त्र पुराण इतिहास दर्शन योग आयुर्वेद शिल्प वास्तुशास्त्र अर्थशास्त्र खगोल भूगोल चेत्यादि विषयाः केचन येन केनापि प्रकारेण समाजस्य उपकाराय प्रयोक्तुं शक्येरन् इति विषये संस्कृतभारत्याः कीदृशोऽस्ति दृष्टिकोणः? कृपया तद्विषये अपि किञ्चित् प्रतिपाद्यताम्। मया अत्र विषयाः अपि उल्लेखिताः.
भवद्भिः यदुक्तं निश्चयेन सान्दर्भिकः प्रश्नः उपस्थापितः भवता. संस्कृतभारतीद्वारा तु 1720 वर्षे एव एका संस्कृते विज्ञानम् इति विषयम् अधिकृत्य प्रदर्शनी निर्मिता आसीत्.
एवम् एवम्.
तस्याम् अद्यतनशिक्षाव्यवस्थायाः 150 विषयाणां समावेशः कृतः आसीत्. तत्र वर्णितमासीत् यत् कथम् अस्माकं पूर्वजैः सर्वेषु विषयेषु कार्यं कृतम्.
एवम्
अद्य सः एव विषयः अस्माकं प्रेरणया राष्ट्रियशिक्षानीतौ भारतीयज्ञानपरम्परामाध्यमेन समावेशः कृतः.
एवम् एवम्.
अद्य सर्वेषां विषयाणां पुस्तकानि लिख्यमानानि सन्ति. तत्र वयं पश्यामः यत् संस्कृतभाषायाः ग्रन्थानां सन्दर्भः स्वीक्रियमाणाः सन्ति.
एवं
संस्कृतभाषायाः तु सर्वे विषयाः निहिताः.
एवं
संस्कृतेन समाजस्य उपकारः पूर्वकालतः एव क्रियमाणः अस्ति, अद्यापि क्रियमाणमस्ति.
एवम्
अद्यापि योगः जनानां स्वास्थ्यरक्षणाय विश्वपटले दृश्यमाणः अस्ति.
एवं सत्यम्.
आयुर्वेदः तु सर्वेषां संज्ञाने अस्ति एव.
एवं
तथा च कोरोना काले भारते लक्षशः जनानां प्राणरक्षा आयुर्वेदेन एव जाता.
एवं
विभिन्नः कथावाचकः संस्कृतस्य विचारैः समाजे नैतिकतां सदाचरणं च आनयन्तः सन्ति.
सत्यं.
ये यस्मात् कारणात् समाजे एकः परिष्कारः अपि जायमानः अस्ति विचाराणां द्वारा.
एवम्
अधुना प्राकृतिक चिकित्सा अपि समाजे दृश्यते.
एवम्
एषा चिकित्सा पद्धति अपि अस्माकं संस्कृतेन लिखितस्य ग्रन्थानाम् उपरि आधारिता अस्ति.
एवम्
अनेके बहवः विषयाः सन्ति ये वक्तुं शक्याः. अतः वक्तुं शक्यते यत् अद्य अपि समाजस्य प्रत्येकमपि जनस्य जीवने संस्कृताधारिता ज्ञानपरम्परा समाविष्टा अस्ति.
भवता संवादाय समयः कल्पितः, एतदर्थं भवते अकैतव धन्यता वचांसि निवेद्यन्ते।
तत्र भवते यु विदुषे युवराजाय आकाशवाणी दलाय च सन्तु मे मंगलकामः।
धन्यवादाः।
सुशील वर्याणां साक्षात्कारं सरल संस्कृत भाषायां श्रुत्वा संस्कृत भाषा सरला भाषा नैव क्लिष्टा न च कठिना पंक्तिरपि अस्माभिः साक्षात् कृता। इदानीं प्रियाः जागरूकाः श्रोतारः संस्कृत जगतः विधीयमानाः नाना गतिविधयः उपस्थाप्यन्ते अस्माकं सहयोगिना कृष्ण प्रसाद उपाध्यायेन।
श्री लाल बहादुर शास्त्री राष्ट्रीय संस्कृत विश्वविद्यालय ग्लोबल संस्कृत फोरम इत्येतयोः संयुक्त तत्वावधाने सर्वदर्शन विभाग पक्षतः शब्दार्थ संबंध विचारेति विषये पाक्षिकी ई संगोष्ठी समनुष्ठिता। आयोजनञ्च सितंबर मासस्य 27 दिनांके संध्यायां 5 अभवत्। वेदास एंड कंप्यूटेशनल लिंग्विस्टिक्स पॉसिबिलिटीज एंड चैलेंजेस इति विषयमवलंब्य बाबा साहेब भीमराव अम्बेडकरेति केंद्रीय विश्वविद्यालयस्य संस्कृत अथ वैदिकाध्ययन प्रभागः त्रिपुरा विश्वविद्यालयस्य च संस्कृत प्रभागः इत्येतयोः संयुक्त तत्वावधाने श्री वेंकटेश्वर वैदिक विश्वविद्यालय तिरुपतिः इत्यस्य च सान्निध्ये आभासीय माध्यमेन विशिष्टोद्बोधनवर्गः समनुष्ठितः। आयोजनमिदं अस्य मासस्य 6 दिनांके प्रातरेव सम्पन्नम्। नमो नमः।
संस्कृत जगतः विषये वार्ताः श्रुताः। बालाः महत्वपूर्णाः निधयः भविष्यस्य च आशाः। श्रावयामि बाल मनोवल्लरी इति भागे डॉक्टर अम्बरीश कुमार मिश्र विरचिताम् बालकवितां। समतोषकरी जनपोषकरी जडता विपदाक्षणमोषकरी नृतमित्रमहो नृतनिन्द्यकरी विजयादशमी नवसिद्धिकरी। विजयादशमी पर्वणः शुभकामनाः। बालाः विजयादशमी पर्वणा प्राप्तया धर्मशिक्षया यूयं राष्ट्र समुन्नायको भवथ।
अस्माकं प्रियाः राष्ट्र समुपासकाः श्रोतारः इदानीं क्रमः एकं भारतं श्रेष्ठं भारतं भागस्य। अस्मिन् प्रभागे संस्कृत हिंदी मराठी गुजराती पंजाबी नेपाली भाषाः अवलंब्य वाक्यं ज्ञापयति अस्माकं सहयोगी दीपक सोलंकी। एक भारत श्रेष्ठ भारत।
हिंदी। मनुष्य अपने गुणों द्वारा पूज्य होता है, न कि आयु लिंग रूप या शारीरिक आकृति द्वारा। संस्कृत। गुणाः पूजा स्थानम् न च लिंगः न च वयः न च आकृतिः। नेपाली। गुण द्वारा ने व्यक्ति पूजित हुन्छ, न कि आयु चिन्ह रूप या आकृति ले। मराठी। वय लिंग रूप आकृति द्वारे नवे, तर गुणामणे मनुष्य पूज्य ठरतो। गुजराती। मानसनी पूजा तेना गुणोती थाय छे, अने तेनी उमर लिंग देखाव के शरीरनी आकृति द्वारा नहीं। पंजाबी। गुणा नाली मनुख सत्कार दे योग हुंदा है, उमर लिंग शकल जन कद काठ नाल नहीं।
समागता अस्ति अवसान वेला। अयि सुहृद् वर्याः प्रियाः श्रोतारः भवन्तः कार्यक्रमस्य सम्बद्धान् अनुभवान् अस्मभ्यम् ईमेल माध्यमेन प्रेषयितुम् अर्हन्ति। अस्माकम् ईमेल संकेतः वर्तते nsd@gmail.com। आगामिनि सप्ताहे अस्मिन् एव समये नूतनम् अंकम् आदाय पुनः उपस्थापयिष्यामः। अहम् डॉक्टर साधना शर्मा सर्वेभ्यः सादरम् अभिवादये। शुभम् मंगलम्।